Hare Krishna. Next we will learn text 69 from chapter 18, conclusion, the perfection of renunciation from Bhagavad Gita as it is. Please repeat after me 3 times. Nacha.
Nacha, nacha, nacha.
Tasman.
Tasman, tasman, tasman.
Manusyeshu.
Manusyeshu. Manusyeshu. Manusyeshu. Manusyeshu.
Kashchin me.
कश्चिन में कश्चिन में कश्चिन में प्रियकृतमः भविता नच्छमें
तस्माद्
अन्य
प्रियतरो
भुवि.
Okay, I'll recite each line. You please repeat after me 3 times. Nachatasman manusyeshu.
Nachatasman manusyeshu. Nachatasman manusyeshu. Nachatasman manusyeshu.
Kashchin me priyakrittamaha.
Kashchin me प्रियकृतमः कश्चिन् मे प्रियकृतमः कश्चिन् मे प्रियकृतमः
भविता न च मे तस्मात्
भविता न च मे तस्मात् भविता न च मे तस्मात् भविता न च मे तस्मात् अन्य प्रियतरो भुवि.
Can you recite the entire verse? नच तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः भविता नच मे तस्माद् अन्य प्रियतरो भुवि.
नच तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः भविता नच मे तस्माद् अन्य प्रियतरो भुवि.
Translation by His Divine Grace A.C. Bhaktivedanta Swami Srila Prabhupada.
There is no servant in this world more dear to me than he, nor will there ever be one more dear.